ध्यानं प्रवक्ष्यामि शृणु सर्वांगसुंदरी यकृतं देवदेवेन ध्यानं हनुमतः प्रियम्। पञ्चवक्त्रं महाभीमं त्रिपञ्चन्नयनैर्युतं बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम्। पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभं दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम्। अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् अत्युग्रतेजो वपुषं भीषणं भयनाशनम्। पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम् सर्वनागप्रशमनं विषभूताधिकृन्तनम्। उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमं पातालसिंहवेताल ज्वररोगादिकृन्तनम्। ऊर्ध्वं हयाननं घोरं दानवान्तकरं परं येन वक्त्रेण विप्रेन्द्र तारकाख्यं महासुरम्। जनाघशरणं तत्स्यात् सर्वशत्रुहरं परम् ध्यात्वा पञ्चमुखं रुद्रं हनुमन्तं दयानिधिम्। खड्गं त्रिशूलं खट्वांगं पाशमंकुशपर्वतं मुष्टिं कौमोदकिं वृक्षं धारयन्तं कमण्डलुम्। दीपालं ज्ञानमुद्रां दशाभिर्मुनिपुङ्गवम् एतान्यायुधजालानि धारयन्तं भजाम्यहम्। प्रेतासनोपविष्टं तं सर्वाभरणभूषितम् दिव्यमाल्यांबरधरं दिव्यगंधानुलेपनं सर्वाश्चर्यमयं देवं हनुमद्विश्वतो मुखं पञ्चास्यमच्युतमनेक विचित्रवर्णवक्त्रं शशांकशिखरं कपिराजवर्यं पीतांबरादिमुकुटैरुपशोभितांगं पिंगाक्षमाद्यमनिशं मनसा स्मरामि। मर्कटेशं महोत्साहं सर्वशत्रुहरं परं शत्रुसंहरमारक्ष श्रीमन्नापदमुद्धर। ॐ हरिमर्कटमर्कटमन्त्रमिदं परिलिख्यति लिख्यति वामतले यदि नश्यति नश्यति शत्रुकुलं यदि मुच्यति मुच्यति वामलता ॐ हं हनुमते नमः ॐ हं हनुमते नमः ॐ हं हनुमते नमः ॐ हं हनुमते नमः ॐ हं हनुमते नमः।